पूर्वस्यां कक्षायां सर्वत्र विभाषा गोः इति सूत्रम् अस्माभिः यद्यपि दृष्टं तथापि अद्यापि किञ्चित् पुनरावर्तनार्थं पुनस्मारणार्थं किञ्चित् तत् स्पृष्ट्वा एव अग्रे गच्छामः इति आशासे। तत्र सर्वत्र विभाषा गोः इति षष्ठाध्यायस्य प्रथमपादस्य द्वाविंशति उत्तर एकशततमं सूत्रम्। अत्र पदत्रयं विद्यते, एङपदान्तादतीति अनुवर्तते। तत्र एङपदान्तादतीति अनुवर्तते, कृपया तत् सूत्रं स्वीकुर्वन्तु। प्रकृत्यान्तः पादमव्यपरे इत्यतः प्रकृत्या इति च अनुवर्तते। प्रकृत्या नाम प्रकृतिभावः इति। प्रकृतिभावः नाम यत्र सन्धिः न भवति तत्र प्रकृतिभावः इति उच्यते। इत्युक्ते विकारः यत्र न प्राप्नोति स एव प्रकृतिभावः। तत्र उदाहरणं लोकेऽपि उच्यते, अयं प्रकृत्या साधुः। इत्युक्ते साधुत्वं तस्य रक्ते डीएनए सर्वत्र सः साधुः एव। साधुत्वं तस्य स्वाभाविकं गुणम् इति अस्माभिः उच्यते। तथैव प्रकृतिभावः नाम तदेकं संज्ञा विद्यते व्याकरणे। प्रकृतिभावः नाम विकाररहितः इति। तत्र सन्धिः नाम तत्र वर्णानां विकारः एव। अतः अत्र प्रकृत्या इति पदस्य अनुवृत्तिः अस्ति। सर्वत्र नाम लोके वेदे च। तत्र पाणिनिव्याकरणं लौकिकव्याकरणं वेदस्यापि व्याकरणम् अस्ति। अतः कृत्स्नम् इति तत्र उच्यते, येनाक्षरसमाम्नायम् अधिगम्य महेश्वराजिति मङ्गलश्लोकः अस्ति। कृत्स्नं व्याकरणं प्रोक्तम् इति कृत्स्नपदं तत्र प्रयुक्तं। कृत्स्नम् इत्यत्र आशयः तत्र न केवलं लौकिकशब्दानां निर्वचनं साधुत्वम् अनेन व्याकरणेन उच्यते, परन्तु वैदिकशब्दानामपि अनेन व्याकरणेनैव इष्टसिद्धिः साधुत्वनिर्णयः भवति इति तत्र कृष्णपदं तत्र प्रयुङ्क्तम्। एवम् अत्र सर्वत्र इत्यत्र सर्वत्र विभाषा गोः इत्यत्र सर्वत्र लोके वेदे च। इदानीम् अत्र प्रसङ्गः किम् अस्ति? गोशब्दस्य अत्र प्रसङ्गः लोके वेदे च एङन्तस्य गोः अतिपरे। गोशब्दस्य अतिपरे, अति इत्युक्ते ह्रस्व अकारे परे। अत् इत्यत्र तपरकरणं विद्यते, तत् सर्वे जानन्ति। तपरकरणं नाम ह्रस्व अकारस्य स्वीकारः। अत्र तपरकरणं विद्यते। एवं ह्रस्व अकारे परे गोशब्दस्य प्रकृतिभावः भवति। अत्र इदं सूत्रं किमर्थं प्रयुङ्क्तम् इत्युक्ते, अत्र यदि इदं सूत्रं न स्यात् तर्हि किं स्यात्? गो अति इत्यत्र तत्र एङः पदान्तादति इत्यत्र पदान्तत्वं यदि गोः अस्ति तर्हि पूर्वरूपं भवति इति एङः पदान्तादति इति सूत्रेण भवति। परन्तु सर्वत्र विभाषा अत्र वैकल्पिकरूपमेकम् इष्टम् अस्माभिः। इदानीं गो वैकल्पिकरूपं नाम प्रकृतिभावरूपमेकम् अस्माभिः इष्यते। अतः किं क्रियते अत्र? गो अग्रम् नो चेत् गो अग्रम् इत्यत्र तत्र गोशब्दः पदान्ते अस्ति। एङन्तः गोशब्दः पदान्ते अस्ति, अनन्तरम् अग्रम् इति अस्ति, अकारः ह्रस्व अकारः अस्ति। गो अग्रम् इति प्रकृतिभावरूपमेकम् इष्टम् अस्माभिः। ततः इदं सूत्रम् आरब्धम्। गो अग्रम् इति पूर्वरूपं तु एङः पदान्तादति इति सूत्रेणैव इष्टसिद्धिः भवति। इदानीं सर्वत्र विभाषा गोः इत्यत्र गोशब्दः ओकारान्तः, तत्र सूत्रार्थे किं वर्णितम्, लोके वेदे च एङन्तस्य गोः अति वा, एङन्तः तर्हि एङन्तः नाम एकारः ओकारः, तत्र ओकारान्तः गोशब्दः भवेत्। ओकारान्तः गोशब्दः भवेत् तर्हि प्रश्नः इदानीम् उदेति, ओकारान्तं विना गोशब्दः अस्ति वा इति प्रश्नः उदेति। तदा उच्यते समासे यदा चित्राः गावः यस्य सः चित्रगुः इति अस्ति, तदा गोशब्दस्यैव गु इति शब्दः गोस्त्रियोरुपसर्जनस्य इति सूत्रेण तत्र गु इति ह्रस्वरूपः गोशब्दस्य प्राप्तिः भवति। तत् समासे विवरणेन अस्माभिः ज्ञायते। इदानीं चित्रगु अग्रम् इति अस्ति, यथा गो अग्रम् इत्यत्र चित्रगु अग्रम् इति अस्ति। एतदपि गोशब्दस्य गु इति उकारान्तः गोशब्दस्यैव विकृतरूपः। तर्हि अत्रापि सर्वत्र विभाषा गोः इत्यनेन किं प्रकृतिभावः भवति वा इति प्रश्नः। तदा उच्यते एतत् ओकारान्तगोशब्दः नास्ति, अतः अत्र प्रकृतिभावरूपं न सम्भवति। एवं प्रकृतिभावरूपे न प्राप्ते तर्हि चित्रगु अग्रम् इत्यत्र यण्सन्धिः एव प्राप्यते, चित्रग्वग्रम् इति रूपम् अत्र निष्पद्यते। अतः सर्वत्र विभाषा गोः इत्यत्र अंशद्वयम् अस्माभिः स्मर्तव्यम्, गोशब्दः ओकारान्तः भवेत्, अपि च गोशब्दः पदान्ते भवेत्, तत् द्वितीयो अंशः। पदान्ते भवेदिति नाम यदि पदान्ते नास्ति, इदानीं गोशब्दः प्रातिपदिकरूपं गो सु औ जस् अम् औ, तत्र सु इत्यत्र गो अह इति यद्यपि गोशब्दः ओकारान्तः, पदान्ते यदि नास्ति चेत् तदा प्रकृतिभावः न भवति। यदि प्रकृतिभावः न भवति तर्हि गो नसिङ्गतोश्च इति अन्यत् सूत्रं प्रवृत्य तत्र गोः गौः गावौ गावः गोः इति रूपं नस् प्रत्यये, नस् नाम पञ्चमी विभक्तौ, गोः इति रूपं निष्पद्यते। तत्र विशेषप्रक्रिया अत्र ज्ञातव्यमिति न, तत्र अंशद्वयं ज्ञातव्यं, गोशब्दः ओकारान्तः भवेत्, गोशब्दः पदान्ते भवेत् पदं भवेत्, पदान्ते भवेत् पदं भवेत्। एवम् एतत् ज्ञानानन्तरम् इदानीं वयं पश्यामश्चेत् तर्हि गो अग्रम् इत्यत्र रूपद्वयं विद्यते, तत्र पूर्वरूपसन्धि सन्धियुक्तरूपमेकम् एङः पदान्तादति इति सूत्रेण गोग्रम् इति रूपसिद्धिः, गो अग्रम् इति प्रकृतिभावरूपसिद्धिः सर्वत्र विभाषा गोः इति सूत्रेण इदानीं भवति। इदानीम् इतोपि एकं रूपं विद्यते वा इति प्रश्नः। तत्र अवङ्स्फोटायनस्य इति एकं सूत्रं विद्यते, अवङ्स्फोटायनस्य, तद् त्रयोविंशतितमसूत्रं, त्रयोविंशत्युत्तर एकशततमसूत्रं, षष्टाध्यायस्य प्रथमे पादे अवङ्स्फोटायनस्य। कदाचित् अवङ्गादेशः भवति, अवङ्गादेशः यदा अवङ्गादेशः इदानीं वक्तव्यं, तदा लघुकौमुदीकारः किं कृतवान्, अवङ्गादेशस्य कृते तत्र परिभाषासूत्रद्वयम् इदानीं सः वदति। इतोपि गो अग्रम् इत्यत्र कृपया सम्यक् शृण्वन्तु, गो अग्रम् इत्यत्र रूपत्रयम् अस्माभिः इष्टम्, गो अग्रम् इति प्रकृतिभावः, गोग्रम् इति पूर्वरूपसन्धिः, इतोपि एकं रूपं विद्यते, तद्रूपं केन सूत्रेण साध्यते, अवङ्स्फोटायनस्य इति सूत्रेण साध्यते। इदानीं అవన్స్ఫోటాయనస్య ఇతి సూత్రస్య సూత్రస్య ప్రస్తుతి ప్రస్తుతేహ పూర్వం తత్ర లఘుకౌముదికారః కిం కరోతి తత్ర పరిభాషా సూత్రద్వయం సహ మధ్య ఆనయతి. తత్ర ప్రథమ పరిభాషా సూత్రం అనేకాల్షిత్ సర్వస్య ఇతి సూత్రం పరిభాషా సూత్రం ఆగచ్చతి. అనేకాల్షిత్ తత్ర అనేకల్ ఇతి తత్ర ఉట్టంకితం తత్ కృపయా అనేకాల్ ఇతి భవేత్. అనేకాల్షిత్ సర్వస్య అనేక ఆల్ అనేకాల్ ప్రథమ తత్ర అనేకాల్షిత్ సర్వస్య ఇతి ప్రథమాధ్యాయస్య ప్రథమపాదే ఏవ అస్తి. తత్ర సూత్రచతుష్టయం అస్తి. కృపయా ప్రథమాధ్యాయస్య ప్రథమపాదం సర్వే స్వీకుర్వంతు. తత్ర 52 సూత్ర 1152 సూత్ర 1152 కృపయా స్వీకుర్వంతు. 1152 మధ్య అలోంత్యస్య ఇది అస్తి. ఇదానీ 1153 కిం అస్తి? నిచ్చ ఇది అస్తి. 54 కిం అస్తి? ఆదేవ్ పరస్య ఇది అస్తి. 55 కిం అస్తి? అనేకాల్షిత్ సర్వస్య. ఇదానీ అనేకాల్షిత్ సర్వస్య ఇది సూత్రం పశ్యామః. ఏతద పరిభాషా సూత్రం విద్యతే. షిత్ ఇత్యత్ర షకారః ఇత్యస్య సహ షిత్ ష ఇత్యస్య సహ షిత్. కదా ఏతత్ సూత్రస్య ప్రవృత్తి? షట్టీ స్థానే యోగా ఇతి ప్రసంగే అస్య సూత్రస్య ప్రవృత్తి. యదా ఆదేశాః భవంతి తత్ర తదా ఏవ అస్య ఆదేశః కుత్ర కస్య స్థానే భవేత్. ఆదేశః నామ అత్ర స్థానీ ఆదేశః నిమిత్తః ఇతి అస్మాభిః దృష్టం. ఇదానీం అకర్సవర్ణే దీర్ఘ ఇతి సూత్రస్య నోచేత్ ఇకో ఎనచి ఇతి సూత్రే ఇక్ ఇక్ వర్ణ స్థానీ అస్తి. ఎణ్ వర్ణ ఆదేశ అస్తి. అచ్ వర్ణ నిమిత్త అచ్ వర్ణ నిమిత్త రూపేణ కార్యం కరోతి. ఏవం స్థానీ నిమిత్త ఆదేశ ఏవం ఆగమః అపి భవితుమర్హతి. ఇదానీం అనేకాల్షిత్ సర్వస్య ఏతద్ ఆదేశ విషయే ఏతద్ పరిభాషా సూత్రం ప్రవర్తతే. ఆదేశ విషయే ఏవ ప్రవర్తతే. యదా షష్ఠీ స్థానే ఆదేశః క్రియతే తదా కుత్ర ఆదేశః కరణీయః. ఆదేశః కుత్ర కథం కరణీయః తత్ర హౌ ఇస్ దిస్ ఆదేశ డన్. షష్ఠీ స్థానే ఆదేశః యది అనేకాల్ వా భవతి తత్ర నియమః అస్తి వా? కదాచిత్ అంత్యవర్ణస్య స్థానే క్రియతే. కదాచిత్ సర్వస్య స్థానే క్రియతే. కదాచిత్ ఏకవర్ణస్య ఆదివర్ణస్య స్థానే కదాచిత్ ఆదేశ క్రియతే. అతః ఇదానీం ప్రశ్నః సంభవతి ఆదేశః కుత్ర కుత్ర భవతి కథం సంభవతి తస్య నియమాః కే నియమాః సంతి. అతః పరిభాషా సూత్రం ప్రవర్తతే అనేకాల్షిత్ సర్వస్య. అనేకాల్ నామ అల్ నామ వర్ణః. అనేకాల్ నామ అనేక వర్ణాః. అనేక నామ తత్ర వర్ణత్రయం వా భవేత్. న్యూనాతిన్యూనం త్రయం వర్ణత్రయం భవేత్. యది అనేకాల్ ఏకాధికః వర్ణః స్యాత్. ఏకాధికః వర్ణః ఏవ అనేకాల్ ఇతి ఉచ్యతే. ఏక అనేక నో క్షమ్యతాం వర్ణత్రయమితి న వర్ణద్వయమపి అనేకాలేవ. అనేక ఏకం అనేకం తత్ర న ఏకం అనేకం. ఏకః వర్ణః న భవేత్. ఏకాధికః వర్ణః యది అస్తి సః ఆదేశః షిత్ వర్ణః వా అస్తి చేత్ సంపూర్ణస్య స్థానే భవతి. అత్ర ఉదాహరణం పశ్యామః. ఇదానీం రామ అస్తి. రామ శబ్దః అస్తి. రామ భిస్ ఇతి అస్తి. రామ సు ఔజస్ అమ్ ఔట్ షస్ తాభ్యాం భిస్ ఇతి తృతీయా भिस्ति बहुवचन प्रत्यय भिस्ति प्रत्यय इदानीं राम भिस्तित्यत्र अतो भिस ऐस इति सूत्रेण भिस् स्थाने ऐस आदेश क्रियते। इदानीं भिस्तित्यत्र कति वर्णाः सन्ति? भकारः इकारः सकारः एवं वर्णत्रयं विद्यते, वर्णत्रयं विद्यते तत्र। इदानीं अनेकाल्त्वात् तत्र अनेकाल् अतः अनेकाल् अनेकाल् अस्ति, भिस् अनेकाल् अस्ति। इदानीम् इदं सूत्रं किम् उच्यते? अनेकाल्षित् सर्वस्य। यदि अनेकाल् अस्ति तर्हि अन्त्यस्य स्थाने, अन्त्यस्य सकारस्य स्थाने आदेशः कर्तव्यो वा? भिकारस्य स्थाने आदेशः कर्तव्यो वा? सम्पूर्णभिसः स्थाने आदेशः कर्तव्यो वा इति प्रश्नः। इदानीम् एतस्मिन् अत्र अनेकाल्त्वात् किं भवति? अयम् आदेशः अनेकाल्षित् सर्वस्य, सर्वस्य आदेशः करणीयः इति एतत् परिभाषासूत्रं वदति। अतः राम भिस् इत्यत्र स्थाने राम ऐस् इति भवति, भिस् इत्यत्र स्थाने ऐस् भवति। ऐस् एव ऐ इति रूपं, तत्र ऐः इति भवति, रामैः इति रूपसिद्धिः भवति, तदनन्तरं पश्यामः। एवम् अत्र अनेकाल्त्वात् अत्र अनेकाल्षित् सर्वस्य इति सूत्रेण किं क्रियते? यत्र यत्र आदेशः सम्भवति तत्र यदि अनेकाल् अस्ति सर्वस्य स्थाने भवति। एवं तत्र इतोपि एकः षित् इति अपि अस्ति। यदि आदेशः षित् अस्ति, यदि अनेकाल्षित् सर्वस्य, यदि तत्र षित् अपि अस्ति तदा षित्वात् षित्वात् आदेशः अपि सम्पूर्णस्य स्थाने एव भवति। इदानीं ज्ञान इति शब्दं स्वीकुर्मः, ज्ञान जशशोः जस् इति भवति, ज्ञान जस् सुवौ जस् ज्ञान प्रथमाभक्ति बहुवचनरूपं ज्ञान जस् इत्यत्र जशशो शीः इति सूत्र अनुसारेण जस् इत्यस्य स्थाने शी इति आदेशः भवति। इदानीं शी शी जस् ज्ञानशी इति भवति, ज्ञानशी इत्यस्य शकारः इत्संज्ञकः अस्ति अतः षित् अस्ति, षित् अस्ति अतः षित्वात् सर्वस्य स्थाने षी इत्यस्य स्थाने एव सम्पूर्ण एतत् षी षित्वात् अयम् आदेशः सम्पूर्ण जस् इत्यस्य स्थाने भवति, न तु अन्त्यवर्णस्य सकारस्य स्थाने। अतः इदानीम् अत्रापि किं ज्ञायते? षित्वात् सर्वादेशः, अनेकाल्त्वात् सर्वादेशः इति सर्वस्य स्थाने आदेशः क्रियते। एतत् सूत्रम् इदानीम् अनेकाल्षित् सर्वस्य इति सूत्रम् अलोन्त्यस्य इति सूत्रस्य अपवादः अस्ति। इदानीं प्रश्नः उदेति, यदि आदेशः इदानीम् आदेशः करणीयः, आदेशः अनेकाल् वा एकाल् वा? यदि एकाल् अस्ति चेत् अन्त्यस्य अलः एव आदेशः अस्ति, यदि अनेकाल् अस्ति चेत् सर्वस्य स्थाने कर्तव्यम्। एवम् अनेकाल्षित् सर्वस्य इति सूत्रम् अलोन्त्यस्य इति सूत्रस्य अपवादः अस्ति। अलोन्त्यस्य इति सूत्रम् अलोन्त्यस्य नाम अन्त्यस्य अलः आदेशः भवति। ज्ञातं वा एतत्? प्रमुख अंशः एतत् सर्वत्र शब्दप्रकरणे सर्वत्र आगच्छति, अतः सम्यक् ज्ञातव्यम्। अलोन्त्यस्य इति उत्सर्गसूत्रमस्ति। अलोन्त्यस्य इति सूत्रं किं वदति? अन्त्यस्य अलः स्थाने आदेशाः भवन्ति। अन्त्यस्य अलः स्थाने नाम अन्त्य अल् अस्ति, तस्य स्थाने आदेशः भवति। यदि आदेशः तत्र नियमेन आदेशः अनेकाल् भवति चेत्, अनेकाल् नाम एकाधिकवर्णः आदेशे भवति चेत् तदा सर्वस्य सर्वस्य स्थाने आदेशः भवति। स्थानिनः सर्वस्य अभिव्यापयति, अभिव्यापं it engulfs the entire sthani and it comes as an and the entire anekal, the entire set of al varnas gets replaced. That is anekal. Yadi shit asti chete tadapi sarvasya sthane eva bhavati. Etadeva anekal shit sarvasya iti sutram vadati. Anekal shit sarvasya iti sutram alontyasya iti sutrasya apavadaha asti tad avashyam smartavyam. Jnatam va sarvaihi. Astu ji. Idanim nitcha iti agrima sutram vidyate. Nitcha iti sutram tatra prathamadhyayasya prathamapade 53rd sutram tripanchashattama sutram nitcha ityatra padadvayam vidyate nitcha iti nit anekalapi antyasteiva bhavati. Idani niyamah kriyate yadi nitasti. Idanim etadapi paribhasha sutramasti etadapi adesha visheya eva pravartate nit nama nakaraha ityasya saha nit yadi atrapi nit anekalapi antyasyaiva syat alontyasya iti sutrasya anuvrtihi asti atra tena kim sutrasya nidadeshaha yadi bhavati antyasya alaha varnasya sthane eva bhavati. Yadi adeshaha nitsanyakaha asti tarhi anekaltvadapi saha shashtyantapadasya antima varne eva bhavet natu sampurnasya padasya sthane. Idani udaharanam pashyamaha tada samyak jnayate sakhi su iti bhavati prathama vibhakti ekavachanam sakhi shabdaha sakhi pratipadikam su pratyayah. Idani sakhi su ityatra anang sau iti sutrena sakhi ityasya sthane anang iti adeshaha bhavati. Anang iti varnaha ekadikaha varnaha asti ataha anekal asti atra anekal adeshaha asti adeshaha anekal asti. Idanim anang ityasya nakaraha itsanyakaha asti ataha yadyapi anekal asti atra nitcha iti prakruta sutrena sakhi iti antiva varnasya ikarasya sthane eva adeshaha bhavati. Evam anang ityatra ana sakhan iti bhavutva sakha iti rupasiddhihi bhavati. Evam anang adeshaha idani prashnaha evam eva tatra prakriya vishesha ritya sakhi shabdasya jnana samaye tad bhavati. Sakhi ityatra sampurna sakhi shabdasya sthane anekaltvat anangiti bhavati va iti prashna tada sakhi shabdaha ityeva na jnayate. Yadi sampurna sakhi shabdasya anangiti kriyate tarihi sakhi shabdaha ityeva iti na jnayate ataha atra nitcha iti sutrasya pravrtihi asti anang nitabhi asti anekalapi asti nidabhi asti. Yadi nit asti tarihi antyasya alaha nama ikaraha sakhi ityasya ikaraha ikarasya sthane eva adeshaha iti bhavati. Idanim kutaha yetat sutra dvayam pravruttam. Idanim anekalshit sarvasya nitcha iti sutra dvayam kutaha lagukomudi karena pravruttam ityukte padante atra avang sphotayanasya iti sutramasti. Avang sphotayanasya iti sutranusarena tatra go agram iti pade avang sphotayanasya iti vidhi sutram vidyate tatra avang iti adeshaha prathama vibhakti ekavachane asti sphotayanasya iti shashti vibhakti ekavachane asti. इदानीं स्फोटायनस्य आचार्यस्य मतेन किं भवति अवं भवति कुत्र भवति गो शब्दस्य अतिपरे ततः अतः येन पदान्तादति इति सूत्रात् येनः पदान्तादिति पदयोः सर्वत्र विभाषा गोः इति विभाषा शब्दः अचि इति इकोणचि इति सूत्रात् अचि इति पदस्य अनुवृत्तिः भवति एवं तत्र अचिपरे स येङन्तस्य पदान्तस्य गोः इत्यस्य स्थाने विकल्पेन अवङ्गादेशः भवति विभाषा इति अस्ति अतः विकल्पेन अवङ्गादेशोऽपि भवति इदानीं प्रश्नः उदेति ओकारान्तस्य पदान्तस्य गोः इति पदस्य अनन्तरं यदि कश्चन अवङ्गादेशः भवति चेत् अवङ् इत्यस्य ङकारः इत्संज्ञकः अस्ति इदानीं ङित्वात् ङिच्च इति सूत्रस्य सहायेन अवङ्गादेशः अन्त्यस्य स्थाने एव भवेत् इदानीं पश्यन्तु गो अग्रम् इत्यत्र ओकारः अस्ति ओकारः पदान्ते अस्ति अच् अस्ति अतः अवङ् स्फोटायनस्य इति सूत्रानुसारेण तत्र गो इति सम्पूर्णस्य स्थाने आदेशः वा गो इत्यत्र ओकारस्य स्थाने अवङ् आदेशः वा इति प्रश्नः इदानीम् आदेशस्य स्वरूपं निर्णीयते आदेशः ङिदस्ति वा ङित् अस्ति अतः ङिच्च इति सूत्रेण अस्य आदेशस्य प्रवृत्तिः ङिच्च इति सूत्रं किं वदति अन्त्यस्य अलः यदि आदेशः ङित् अस्ति अन्त्यस्य अलः एव भवेत् न तु सर्वादेशः यद्यपि सर्वादेशः अनेकाल्षित् सर्वस्य इति सर्वादेशः उच्यते तथापि ङिच्च इति सूत्रम् अनेकाल्षित् सर्वस्य इत्यस्यापि अपवादः अस्ति इदानीम् अपवादः बाध्यबाधकभावः कथमस्ति इति पश्यामः सूत्र 52 यदस्ति अलोन्त्यस्य तत् उत्सर्गसूत्रमस्ति तस्य अपवादसूत्रम् अनेकाल्षित् सर्वस्य तस्य अपवादसूत्रं ङिच्च एवम् आदेःपरस्य इत्यपि इत्यस्यापि सूत्रस्य प्रवृत्तिः मध्ये प्रवर्तते तदपि अहम् अनन्तरं वदामि एवम् अलोन्त्यस्य अनेकाल्षित् सर्वस्य ङिच्च आदेःपरस्य एतत् सूत्रचतुष्टयस्य कार्यं कथं सम्भवति इति अस्माभिः सम्यक् ज्ञातव्यम् अलोन्तस्य इति सर्वत्र प्रवर्तते अन्त्यस्य अलः स्थाने आदेशाः भवन्ति परन्तु यदि अनेकाल् अस्ति चेत् यदि षित् अस्ति चेत् तदा अनेकाल्षित् सर्वस्य इत्यनेन आदेशः भवति यदि अनेकालपि अस्ति षिदपि अस्ति परन्तु ङित् अस्ति नो चेत् अनेकाल् अस्ति ङित् अस्ति तदा सर्वस्य स्थाने करणीयं वा अन्त्यस्य स्थाने करणीयं वा इति प्रश्ने कृते ङिच्च इति सूत्रेण किम् उच्यते अन्त्यस्य एव करणीयम् इदानीम् अत्र अवङ् स्फोटायनस्य इति तस्य विधिसूत्रे तस्य परिभाषासूत्रस्य प्रवृत्तिः अत्र दृश्यते इदानीं गो अग्रम् इति स्थिते पदान्ते ओकारः अस्ति तदनन्तरम् अचुवर्णः अस्ति इदानीम् ओकारस्य पदान्ते ओकारः अस्ति अवङ् आदेशः अवङ् स्फोटायनस्य इति सूत्रेण भवति अवङ् आदेशः कस्य स्थाने भवति इति प्रश्ने कृते अन्त्यस्य ओकारस्य स्थाने वा समग्रस्य गो इति पदस्य वा इति प्रश्नः आगच्छति तदा उच्यते आदेशस्य स्वरूपम् अस्माभिः सम्यक् परिशीलनीयम् आदेशस्य स्वरूपं ङित् अस्ति नकारः इत् अस्ति अतः ङित्वात् ङिच्च इति सूत्रस्य प्रवृत्तिः अत्र भवति ङिच्च इति सूत्रम् अनेकाल्षित् सर्वस्य इति सूत्रस्य अपवादः अस्ति तेन अवङ् इति आदेशः ओकारस्य एव ओकारस्य स्थाने एव भवति न तु समग्रस्य गो इति पदस्य एवं तत्र गौ आ आ इति स्थिते गवाग्रम इति अकस्वर्णे दीर्घः इति प्रवृत्तिः भवति गवाग्रम इति तृतीयरूपं सिद्ध्यति एवं गो अग्रम इत्यत्र रूपत्रयं विद्यते स तत्र गो अग्रम इति प्रकृतिभावस्थ रूपं गवाग्रम इति अवन्स्फोटायनस्य इति अवन्नादेश अनन्तरं सवर्णदीर्घसन्धियुक्तरूपं गोग्रम् इति पूर्वरूपसन्धेः रूपम् एवं तदेव उच्यते अवन्स्फोटायनस्य इति आदे अत्रापि अंशद्वयं विद्यते गो इति पदं पदान्ते एव स्यात् तत्र यदि अचन् यदि गो इति पदं पदान्ते एव स्यात् इदानीं गो इ इत्यस्य पदान्ते नास्ति तदनन्तरं सप्तमी एकवचनप्रत्ययः अस्ति इकारे अच् परे यद्यपि अच् अस्ति तथापि अवङ्गादेशः नास्ति यचोयवायवः इति गवि इति एव रूपं भवति गो इति पदम् ओकारान्तं स्यात् चित्रगो अग्रं तत्तु अस्माभिः पूर्वमेव दृष्टं चित्रग्वग्रम् इति यण्सन्धिः भवति एवं विशेषरूपेण अत्र किं ध्येयम् इत्युक्ते गो अग्रम् इति स्थितौ त्रिभिः सूत्रैः त्रीणि रूपाणि निष्पद्यन्ते गो अग्रं सर्वत्र विभाषा गोः गवाग्रम् गवाग्रम् अवङ्स्फोटायनस्य गोग्रम् एङः पदान्तादपि इति सूत्रेण इदानीम् अग्रिमसूत्रं तत्र विद्यते इन्द्रे च इति यदि इन्द्रशब्दः गोशब्दानन्तरं भवति तदा किं भवति इत्युक्ते अवङ् आदेशः भवति अत्रापि गो अवङ्स्फोटायनस्य इति सूत्रात् अवङ्गादेशः येङः इति पदस्य आदेशः सर्वत्र विभाषा गोः इति गोः इति पदस्य आदेशः भवति अत्र इन्द्रशब्दे परे यदि ओकारान्तगोशब्दः अस्ति तदा अवङ्गादेशः भवति गो इन्द्रः अवङ्गादेशः ओकारस्य स्थाने नित्वात् ओकार नित्वात् निच्च इति सूत्रेण अन्त्यस्य ओकारस्य स्थाने एव अवङ्गादेशः भवति गव इन्द्र गवेन्द्र इति आद्गुणः इति सूत्रेण गवेन्द्रः इति रूपसिद्धिः भवति एवम् इन्द्रे च इति रूपसिद्धिः भवति इदानीम् एतत् चार्ट् इदानीं सम्यक् द्रष्टव्यम् एतत् एतेन अद्यतनकक्षायाः उपसंहारः भविष्यति तत्र आदेशाः गुणवृद्धि ह्रस्वदीर्घप्लुतभिन्नाः भवन्ति आदेशाः यदा भवन्ति तदा प्रथमम् अस्माभिः इदानीं बाध्यबाधकविचारः उत्सर्गसूत्रं किम् अपवादसूत्रं किम् एतत् सर्वं मनसि निधाय एव कार्यं कर्तव्यं तत्र 52, 53, 54, 55 इति चत्वारि सूत्राणि यानि सन्ति तस्य प्रवृत्तिः कथं भवति इति एकं चार्ट् यथाशक्ति निर्मितमस्ति तत् चार्ट् द्वारा अस्माभिः किञ्चित् सम्यक् ज्ञातुं शक्यते चार्ट् मध्ये किम् अस्ति इति पश्यामः इदानीम् आदेशः तत्र एतत् फ्लो चार्ट् इति उच्यते तत्र कम्प्यूटर् करणे तत्र यदि ट्रयाङ्गल् एवं क्वाड्रिलैटरल तद रॉम्बस अस्ति चेत् डिसिशन बॉक्स इति अस्ति इदानीं आदेशः ङित् अस्ति वा अङित् अस्ति वा यदि ङित् अस्ति तर्हि अत्र दृश्यते ङित् अस्ति चेत् अन्तादेशः करणीयः केन सूत्रेण ङिच्च इति सूत्रेण अन्तादेशः करणीयः उदाहरणम् अस्माभिः सखी शब्दः अनंसौ इत्यत्र दृष्टम् उदाहरणं त्यजन्तु परन्तु आदेशः यदि ङित् अस्ति चेत् प्रथमं ङिच्च इति सूत्रस्य प्रवृत्तिः करणीयं यदि ङित् अस्ति चेत् यदि ङित् नास्ति चेत् किं करणीयम् एकाल् वा अनेकाल् वा इति द्रष्टव्यम् यदि अनेकाल् अस्ति चेत् तर्हि अनेकाल्चित् सर्वस्य इति सर्वादेशः करणीयः अस्तेर्भूः हा एतदपि सम्यक् उदाहरणमस्ति अस्तेर्भूः इत्यत्र इदानीं अस्तेर्भूः अस्तेर्भूः इत्यत्र इदानीं अस् धातोः लृट् लकारे किं रूपं भवति भविष्यति इति रूपं भवति एवं अस्तेर्भूः इत्यत्र सम्पूर्णस्य अस्धातोः भूधातु भू आदेशः भवति तत्र अनेकाल्त्वात् सर्वादेशः एवं यदि ङित् वा इदानीम् आदेशः ङित्वा अङित्वा इति द्रष्टव्यं यदि ङित् अस्ति चेत् ङिच्च इति अन्त्यादेशः यदि अङित् अस्ति चेत् एकाल् वा अनेकाल् वा इति द्रष्टव्यम् यदि अनेकाल् अस्ति चेत् अनेकाल्त्वात् अनेकाल्षित् सर्वस्य इति सूत्रेण सर्वादेशः करणीयः उदाहरणम् अस्तेर्भूः अतोऽपि सायि तत् रामैः इति अस्माभिः उदाहरणं दृष्टं तदपि स्वीकर्तुं शक्यते यदि अनेकाल् नास्ति चेत् एकाल् अस्ति चेत् तदा पुनः द्रष्टव्यं षित् अस्ति वा अषित् अस्ति वा यदि षित् अस्ति चेत् अनेकाल् षित् सर्वस्य षित् षित्वात् सर्वादेशः एवं षित्वात् यदि षित्वा अषित्वा इति द्रष्टव्यं षित् यदि अस्ति चेत् अनेकाल् षित् सर्वस्य इति सर्वादेशः यदि अषित् अस्ति चेत् यदि परस्य आदेशः वा इति द्रष्टव्यम् आदेश परस्य इति आदेः परस्य आदेः कदाचित् आदेशः भवति तदपि भवति तदनन्तरं यदि परस्य आदेशः न सम्भवति तदनन्तरम् अवशिष्टः किम् अवशिष्टः तत्र शेषभूतः अन्त्यस्य अलः आदेशः करणीयः तदा अलोऽन्त्यस्य इति सूत्रस्य प्रवृत्तिः भवति एवम् अत्र ङिच्च इति तत्र మహాపవాదాత్మకం సూత్రం. నిచ్చ ఇది ప్రథమ ప్రవృత్తి. నిచ్చ ఇది సూత్రస్య యది ప్రవృత్తి అస్తి చేత్ నిచ్చ ఇది సూత్రస్య ప్రవృత్తి. తదనంతరం అనేకాల్షిత్ సర్వస్య ఇది సూత్రస్య ప్రవృత్తి. తత్రాపి అనేకాల్త్వాత్ సర్వాదేశ. అనంతరం శిత్వాత్ సర్వాదేశ. అనంతరం ఆదేపరస్య ఇది సూత్రస్య ప్రవృత్తి. అనంతరం అలోంత్యస్య ఇది సూత్రస్య ప్రవృత్తి. ఏవం అత్ర ఉత్సర్గాపవాద న్యాయ పాణినా ప్రథమాధ్యాయస్య ప్రథమపాదే ఉత్సర్గాపవాద న్యాయ బాధ్యబాధక భావ స్వరూపం సూత్రేషు కథం తత్ర సంచారః భవతి ఇతి సమ్యక్ నిరూపితం. ఏవం పరిభాషా సూత్రాణాం సమ్యక్ ఉపయోగః కరణీయః. తత్ర అదంత పుల్లింగ ప్రకరణే ఏతేషాం సర్వేషాం సూత్రాణాం సర్వదా ఉపయోగః భవతి. అవశ్యం తత్సర్వం పశ్యామః. ఇదానీం కిమపి సందేహః అస్తి వా? సమ్యక్ ఏతేన చార్ట్ ద్వారా సమ్యక్ అవగమనం స్యాత్. ఏతత్ చార్ట్ ఏవ స్మర్తవ్యం, నో చేత్ కదాచిత్ భ్రమ సంభవతి. నిచ్చ కదా ప్రవృత్తి, అనేకాల్షిత్ సర్వస్య ఇది సూత్రస్య ప్రవృత్తి కదా, షిత్వాత్ కదా ప్రవృత్తి, కదా పరస్య ఆదేశ భవతి, ఏతత్ సర్వం అస్మాభిః. ఏతత్ చార్ట్ యది సమ్యగ్ అస్తి చేత్ అస్మాకం మనసి కృపయా ఏతత్ లిఖిత్వా స్థాపయంతో. తద స్లైడ్ మధ్యే భవేత్ ఇతిన, కృపయా లిఖిత్వా స్థాపయంతు. అస్తు, అగ్రిమకక్షాయాం ప్రకృతి భావ స్వరూపం పశ్యామః. అత్ర ప్రకృతి భావ సూత్రాణి ప్లుత సూత్రాణి సర్వాణి సంతి పశ్యామః. ఆదేశః భిన్న రూపం దృష్టం వై. ప్రశ్నస్య అవగమనం న అభవత్ భగిని. కోపి ప్రశ్నస్య అవగమనం కస్యాపి అభవత్ వా? ఆదేశః భిన్న రూపం దృష్టం వై. మీనా భగిని కృపయా పునః ప్లీజ్ ఆస్క్ ద క్వశ్చన్ ఇన్ అ డిఫరెంట్ వే ఆర్ ఎక్స్ప్లెయిన్ ద క్వశ్చన్. ఓ గుణవృద్ధి హ్రస్వ దర్శితం వై. గుణవృద్ధి హ్రస్వ దీర్ఘ ప్లుత భిన్న ఇది దర్శితం. ది ఆదేశ తత్ర గుణవృద్ధి యదా ఆదేశ భవతి, గుణ ఆదేశ వృద్ధి ఆదేశ భవతి, తదా కదాచిత్ ఏతేషాం నియమానాం పాలనం న భవతి. కదాచిత్ ఏక పూర్వపరయోః ఇతి నియమః ఆగచ్చతి. హ్రస్వాదేశః యదా క్రియతే తదా ఏచై గ్రహస్వాదేశ ఇతి సూత్ర అన్య తత్ర అన్య అన్య అన్యస్య సూత్రస్య ప్రవృత్తి భవతి. అతః ఆదేశః గుణవృద్ధి హ్రస్వ దీర్ఘ ప్లుత భిన్నః భవేత్, తదా ఏవ ఏతే నియమాః ఆగచ్చతి. కిమర్థం ఆదేశాః భిన్నస్థానేషు ఇతి స్యాత్. తదేవ గుణవృద్ధి హ్రస్వ దీర్ఘ ప్లుత, యది దీర్ఘాదేశః భవతి తర్హి నియమాంతరస్య ప్రవృత్తి భవతి. ఏం హ్రస్వాదేశ యదా భవతి తదా నియమాంతరస్య ప్రవృత్తి భవతి. ఏం గుణవృద్ధి ह्रस्व दीर्घ प्लुत भिन्नः आदेशः इदानीम् अनङ्ग आदेशः अस्तेर् भूः इति आदेशः इश् आदेशः एते आदेशाः यदा भवन्ति तदा एते नियमाः सम्भवन्ति अस्तु इदानीं